गोपनीयं प्रयत्नतः शठया कृपणा यथा दाम्भिकया सुरेश्वरी ब्रह्महत्यम् अवप्नौति तस्मद् यत्नेन गोपयत्। ॐ अस्य श्रीगोपालसहस्रनाम स्तोत्र महामन्त्रस्य श्रीनारद ऋषिः अनुष्टुप् छन्दः श्रीगोपालो देवता कामविजम् मायाशक्तिः चन्द्रः कीलकम् श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्ते श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः। अथवा ॐ ऐं क्लीं विजम् श्रीं ह्रीं शक्तिः श्रीवृन्दावननिवासः कीलकम् श्रीराधाप्रियं परम् ब्रह्मीति मन्त्रः। धर्मादिचतुर्विधा पुरुषर्थ सिद्धार्थे जपे विनियोगः। ॐ क्लं अनुकुष्ठाव्यं नमः। ॐ क्लीं तर्जनिव्यं नमः। ॐ क्लुं माध्यमाव्यं नमः। ॐ क्लीं अनामिकाव्यं नमः। ॐ क्लौं कनिष्ठिकाव्यं नमः। ॐ क्लः करतलकरवृषभव्यं नमः। ॐ क्लीं हृदयाय नमः। ॐ क्लीं शिरसे स्वः। ॐ क्लुं शिखायै वसट्। ॐ क्लैं कवचाय हुं। ॐ क्लौं नेत्रत्रयाय वसट्। ॐ क्लः अस्त्रया फट्। क्लीं अङ्गुष्ठाव्यं नमः। कृष्णाय तर्जनिव्यं नमः। गोविन्दया मध्यमव्यं नमः। गोपीजना अनामिकाव्यं नमः। वल्लभया कनिष्ठिकाव्यं नमः। स्वाहकरतराकरपृष्ठाव्यं नमः। इति करान्यासः। क्लीं हृदयया नमः। कृष्णाया शिरसे स्वः। गोविन्दया शिखायै वसट्। गोपीजनकवचया हुं। वल्लभया नेत्रत्रयाय वोषट्। स्वाहा अस्त्रया फट्। इति हृदयादिन्यासः। अथ ध्यानम्। ॐ कस्तूरितीलकं ललतपटले वक्षस्थले कौष्ठवं नासग्रे वरामौक्तिकं करातले वेणुकरे कङ्कणं सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तवली गोपाश्री परिवेष्टितो विजयते गोपालचूडामणिः। पुल्लिन्दवरकन्तिम् इन्दुवदनं बर्हावतं सप्रियं श्रीवत्सङ्कं उदारकोष्ठवधरं पीताम्बरं सुन्दरं गोपिनं नयनोत्पालरचितातनुं गोगोपासंहवृतं गोविन्दं कलावेणुवदनपरं दिव्याङ्गभूषं भजे। अथ श्रीगोपाल सहस्रनाम स्तोत्रः प्रारम्भः। ॐ क्लीं देवाः कामदेवः कामबीजा शिरोमणिः श्रीगोपालो महीपालो सर्ववेदान्तपरगः धारणी पालको धन्यः पुण्डरीकाः सनातनः गोपतिर्भूपतिः शस्ता प्रहर्ता विश्वतो मुखः आदिकर्ता महाकर्ता महाकलः प्रतापवन् जगज्जीवो जगद्धता जगद्भर्ता जगद्वसुः मत्स्योभिमाः कुहुवर्ता हर्ता वराहमूर्तिमान् नारायणो ऋषिकेशो गोविंदो गरुड़ाध्वजा गोकुलेन्द्रो महाचंद्रः सर्वरि प्रियकरः कमलामुखलुलक्षः पुंडरीकाशुभावहः दुर्वशाः कपिलो भौमः सिंधुसागरसंगमः गोविंदो गोपतिर्गोत्रः कालिंदी प्रेमपुरतः गोपस्वामी गोकुलेन्द्रो गोवर्धना वराप्रदः नन्दादि गोकुलात्रता दाता दरिद्रवैजनः सर्वमंगलदात च सर्वकाम प्रदायकः आदिकर्ता महीवर्ता सर्वसागर सिंधुजः गजासमी गजोद्धारी कामी कामा कलानिधिः कलंकारहित चंद्रो बिंबशो बिंबसत्यमः मालाकरः कृपाकरः कोकिलस्वरभूषणः रमो नीलांबरो देवो हाली दुर्दाममर्दनः सहस्रक्षापुरी वित्ता महामारीचिनाशनः शिवः शिवतामु वित्ता बलाराति प्रपूजकः कुमारी वरदायी च वरण्यो मीनकेतनः नरो नारायणो धीरो राधापतिरुदारधिः श्रीपतिः श्रीनिधिः श्रीमान् मापतिः पतिरजः वृन्दपतिः कुलाग्रामी धामी ब्रह्मा सनातनः रेवती रावणो रामा चञ्चला चारुलोकनः रामायणा शरीरोऽयं रामी रमः श्रियः पतिः सर्वराः सर्वरि सर्वः सर्वत्र शुभदायकः राधा राधायिता रधि राधा चित्तप्रमोदकः राधा रातिसुखोऽप्यतो राधा मोहन तत्परः राधा वासी करो राधा हृदयं भुजशत्पदः राधा लिंगन सम्महो राधा नर्तन कौतुकः राधा सैजत संप्रीति राधा काम फलप्रदः वृन्दापातिः कोशनिधिः कोकशोक विनाशकः चंद्रपाती चंद्रपाती चंदको दंदभैजनः राम दशरथि रामा भृगुवंशा समुद्भवः आत्मा रामो जिता क्रोधा मोह मोहन्धनैजनः वृषभानुर्भवो भविः कश्यपीः करुणानिधिः कोलाहालो हली हेली हेली हलाधरा प्रियः राधा मुखब्जमार्तण्डो भास्करो राविजो विदुः विधिर्विधता वरुणो वरुणो वरुणि प्रियाः रोहिणी हृदयानन्दी वसुदेवत्मजो बली नीलाम्बरो रोहिण्यो जरासन्धा वदोमलः नागनावम्ब विरुद विरह वरद बली गोपठ बीजयी विद्यान् सिपि विष्णाः सनातनः परशुराम वाचो ग्रही वरागही श्रीगलः दमाघोषोपदिष्ण च रथाग्रही सुदर्शनः वीरापत्नी यशस्त्रता जरा व्याधि विगतकः द्वारिका वसतत्वजियो हुतशना वराप्रदः यमुना वेगसंहारी नीलाम्बराधरः प्रभुः विभुः शरशनो धन्वी गणेश गणनायकः लक्ष्मण लक्षण लक्ष्य रक्षा वंशा विनाशनः वामन वामणीभूत वामन वामनारुहः यशोदानन्दनः कर्ता यमालार्जुन मुक्तिदः उलूखाली महामनी रमा वैशमी वक्ता अनुकारी भगवान केशव चालधार कहा केशिहा माधुहा मोही वृषभ सुर विगत कहा अघा सुरा विणशी च पुताना मोक्ष दया कहा कुब्जा विनोदी भगवान कामसा मृत्योर्महामखी अश्वामेधो वजापेय गोमेधा नारमेध वहां कंडर्पकोटिलावन्या चंद्रकोटि सुशीतलहा रविकोटि प्रतीकश वायुकोटि महावलहा ब्रह्मा ब्रह्मांडकर्ता च कमला वंचिता प्रदहा कमले कमलक्ष च कमला मुखलोलुपहा कमला व्रतधारी च कमला वह पुरंदरहा सौभाग्यधिकचित्तोयं महामयी महोत्कतः तराकारिहि सुरात्राता मरीचक्षोभकराकः विश्वमित्रप्रियादन्त रामाराजीवलोचनः लङ्काधिपकुलाध्वंसी विदिशनावराप्रदः सीतानन्दाकरो राम वीरावारिधिवन्दनः खरा दुशना संहारी सकेत पूरवासनः चंद्रवाली पति कुलः केशी कंसावदामरः माधव माधुहा माधवी माधवी को माधवी विभुः मुंचत विगह मनो धेनु करिधरत्मजः वंशीवता विहरी च गोवर्धना वनश्रयः तथा तलावणोद्देशी वन्दिरवना शङ्खः श्रीनावर्ता कथाकारी वृषवानुसुतपतिः राधा प्राण समूराधा वदानब्जा मधुव्रतः गोपीरञ्जान दैवजियो लीला कमला पूजितः क्रीड़ा कमल संदोहा गोपिका प्रीतिरंजनः रंजको रंजनो रंग रंगी रंगा महीरुहः कमः कामारि भक्तोयं पुराण पुरुषः कविः नारद देवल विमा बलो बला मुखंबुजः अंबुज ब्रह्म शक्षि च योगी दत्तावरो मुनिः ऋषभः पार्वतग्राम नदी पवना वल्लभः पद्मानभ सुराजेष्ठ ब्रह्म रुद्र विभूषितः गणानंत्रण कर्ता च गणेशो ग्रहिलो ग्रहिः गणाश्रयो गणाध्यक्षः त्रिणी कृता जगत्त्रयः यदावेन्द्र द्वाराकेन्द्र मथुरवल्लभ धूरी भ्रमरः कुन्तली कुन्ती सुता रक्षी महामखी यमुना वरादता च कश्यपस्य वराप्रदः शङ्खचूडावदोत्तामा गोपीरक्षणतत्परः पञ्चजन्यकरो रामी श्रीरामी वन जयः फाल्गुनः फाल्गुना सख वीरधवाधकरकः रुक्मिणी प्राणनाथ स च सत्यभामा प्रियङ्करः कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः अङ्कुशवो सुरोभमो वमाको प्रमको हरिः सरला शश्वतु विरो यादो वंशी शिवत्मकः प्रत्युम्नो बलकर्ता च प्रहर्ता दैत्यः प्रभुः महाधनो महावीरो वनमाला विभूषणः तुलसीदां शोभद्यो जलन्धर विनाशनः शुरः सूर्यो मृकन्दा च भास्करो विश्वपूजितः रवितमुहा वह्नी च वादवो वादवनलः दैत्यदर्प विनशि च गरुडो गरुडाग्रजः गोपीनाथो माहीनाथो वृंदानाथो वरुधकः प्रपंची पंचरूपचा लता गुल्मा च गोपतिः गंगचा यमुना रूपो गोदावित्रावती तथा कावेरी नर्मदा तापी गंडकी सरयू तथा राजसा तमसः सत्वी सर्वंगी सर्वलोचनः सुधामयो मृतामयो योगिनी वल्लभा शिवः बुद्धो बुद्धिमातं शिशुः विष्णुर्जिष्णुः सचिपतिः वंशी वंशाधरो लोको वीलोकमोहनाशनः रवारवी रवो रावो बलो बलावलः कः शिवो रुद्रो नलो नीलो लङ्गुलिलङ्गलश्रयः परदः पवनहंसो हंसरुधजगतपतिः मोहिनी मोहनो माई महामयो महामखी वृषो वृषपतिः कलः कालिदमनकरतः कुब्जा भाक्या प्रदो विरो राजकक्षया करकः कोमल वरुणो रजा चालजो जलधरकः हरकः सर्वपापघ्नः परमिष्ठी पितामहः खड्गाधारी कृपाकरी राधरमनसुन्दरः द्वादशारण्यसंभोगी शीशनागफननयः कामः श्यामः सुखः श्रितः श्रीपतिः श्रीनिधिः कृतिः हरिर्हरो नरो नारो नरुत्तम इषु प्रियः गोपाली चित्तहर्त च कर्ता संसारतरकः आदिदेवो महादेव गौरिर्गुरुरनाश्रयः साधुर्मधुर्विधुर्धाता भ्रातृक्रूरः परायणः रोलं विचाहया गृहो वानरिर्वानश्रयः वनं वाणी वनाध्यक्षो महावन्द्यो महामुनिः श्यामन्तकर्मणिप्रज्ञो विज्ञो विघ्ना विघातकः गोवर्धनो वर्धानीयो वर्धानी वर्धनाप्रियः वर्धन्यो वर्धनो वर्दी वार्धिन्याः समुखप्रियः वर्दितो वृद्धको वृद्धो वृन्दरकाजनप्रियः गोपालरमणिवर्ता सम्बकुष्ठविनाशनः रुक्मिणीहरणः प्रेमा प्रेमी चन्द्रावलीपतिः श्रीकर्ता विश्वभर्त च नरो नारायणो बलि गणो गणपति चैव दत्तात्रेया महामुनिः व्यासो नारायणो दिव्यो व्यभो व्यभुकधारकः स्वाहा श्रेयसं शिवं भद्रं भावुकं भाविकं शुभम् शुभत्मकः शुभशस्ता प्रशस्ता मेघनदः ब्राह्मण्यदेवदिननम् उद्धारकर्णशमः कृष्णः कमलपत्रक्षः कृष्णः कमललोचनः कृष्णः कामि सदा कृष्णः समस्तप्रियकारकः नन्दो नन्दी महानन्दी मादी मदानकः किली मीली हिली गिली गोली गोलो गोललयो गुली कुक्कुली मारको सखी वातः पिप्पलकः कृति मृच्छः पालहर्त च यशोदा यश एव च अच्युतः केशवो विष्णुर्हरिः सत्यो जनर्दनः हंसो नारायणो लीलो नीलो भक्तिपरायणः जानकी वल्लभो राम वीरम विघ्ननाशनः सहस्रांशूर्महावाणो वीरमहोर्महोदधिः समुद्रब्धिरकूपरः परावरः सरित्पतिः गोकुलानन्दकारी च प्र प्रतिज्ञा परिपालकः सदा रमः कृपारमो महाराम धनुर्धरः पर्वताः पर्वतकरो गायो गेयो द्विजाप्रियः कम्बलाश्वातरो रामो रामायणप्रवर्तकः द्वारे देवो दिवशुदिव्यो भाव्यो भावी भयापहः पार्वती भाग्यसाहितो भ्रातृलक्ष्मी विलासवन् विलाशे साहसी सार्वी गर्वे गर्वे तनोचनः मुरारे लोकधर्मग्नो जीवनो जीवनन्ततः यामो यामादिर्यामानो यामि यामा विधायकः वंशुले पंशुले पांशुः पाण्डुरर्जुनवल्लवः ललिता चन्द्रिका माली माली मलम्बुजाश्रयः अम्बुजक्षो महायक्षो दक्षचिन्तामणिः प्रभुः मनिर्दीनामणिः चैव केदारो बादरेश्रयः बादरे वन सम्प्रीतो व्यासः सत्यवतिसुतः आमरारि निहन्त च सुधा सिन्धुर्विधूदयः चन्द्रो रविः शिवः शूरी चक्रे चैव गदाधरः श्रीकर्ता श्रीपतिः श्रिदः श्रीदेवो देवकी सुतः श्रीपतिः पुण्डरीकाक्षः पद्मानाभो जगत्पतिः वासुदेवो प्रमेयत्मा केशवो गरुड़ध्वजः नरयनः परमधमा देवदेवो महेश्वरः चक्रपाणिः कलापुर्यो वेदविद्यो दयानिधिः भगवान् सर्वभूतेषु गोपालः सर्वपालकः अनन्तो निर्गुणो अनन्तो निर्विकल्पो निरञ्जनः निराधारो निरकारो निराभासो निराश्रयः पुरुषाः प्रणवतितो मुकुन्दाः परमेश्वरः शणामणिः सर्वभौमो वैकुण्ठभक्तवत्सलः विष्णुर्दामोदरः कृष्णो माधवो मथुरपाते देवकी गर्वसम्भूतो यशोदा वत्सलो हरिः शिवः शङ्करशनः शम्भुर्भूतनाथ दिवश्पतिः अव्ययाः सर्वधर्मग्नो निर्मलो निरुपद्रवः निर्वनानायक नित्यो नीलजिमुतः सन्निभः कलक्षाश च सर्वघ्नः कमलरूपा तत्परः ऋषिकेशाः पीतावसा वासुदेवा प्रियत्मजः नन्दगोपाकुमरार्यो नवनीतशनः प्रभुः पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः अनिरुद्धचक्ररथः शरणापाणि चतुर्भुजः गदाधरः सुरतिघ्नो गोविन्दनन्दकयुधः वृन्दावनचरः शौरिः वेणुवाद्यविशरदः त्रिनवरतन्तकविमः साहसो बाहुविक्रमः शकतसूरसंहारी बकासूरविनशनः धेनुकसुरसंहतः भूतनारीकशिरी पीतमाहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः अप्रमेयः प्रभुः प्रज्ञो प्रतार्याः स्वप्नावरधनः धन्यो मन्यो भवो भावो धीरः शान्तो जगद्गुरुः अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवता गुरुः क्षीराभीषयनुधाता लक्ष्मीवायी लक्ष्मणव्रजः धातृपतिरमयात्मा चन्द्रशेखरपूजितः लोकसाक्षी जगच्चक्षुः पुण्यचरित्रकीर्तनः कोटिमन्मथसौन्दर्यो जगन्मोहन विग्रह मंडस्मिता तमो गोपो गोपिका परिवेष्टितः फुल्लरविंद नयना चनुरंधा निषुदनः इंदिवारादलाश्यामो बर्हि बर्हावतंसकः मुरलिनीनादहालादो दिव्यमल्यंबरश्रयः शोकपोलायुगः शुभ्रो युगलाः सुललतकः कंबुग्रीवो विशालक्षो लक्ष्मीवानुशुवादर्शनः पीनवक्षा चतुर्बाहु चतुर्मूर्ति त्रिविक्रमः कलंकारहितः शुद्धो दुष्टशत्रुनिवारणः किरीटकुण्डलधारः कताकंगदमन्दितः मुद्रिकावारणोपितः कतिसूत्राविराजितः मञ्जिरारञ्जितापदः सर्वभरणाभूषितः विन्यस्तपदयुगलो दिव्यमङ्गलविग्रह गोपिकानयननन्दः पूर्णचन्द्रनिवनः समस्तजगदनन्दः सुन्दरो लोकनन्दनः यमुनातीरसञ्चारी राधामन्मथवैभवः गोपनारी प्रियोदन्तो गोपीवस्त्रापहारकः श्रृङ्गारमूर्तिः श्रीधमा तराकमूलकरणम् सृष्टिसंरक्षणोपयः क्रूरासुराविभजनः नराकासुरसंहारी मुरारिर्वैरमर्दनः आदित्या प्रियदैत्या विकरचेन्दुशेखरः जरासन्धकुलध्वंसी कंसरतिः सुविक्रमः पुण्यश्लोकाः कीर्तनीयो यदावेन्द्रो जगन्नुतः रुक्मिणीरमणः सत्या भामजम्भवति प्रियः मित्रविन्दनदनाजिति लक्ष्यमानसमुपासितः सुधाकाराकुले जातो नन्दप्रबला विक्रमः सर्वसौभाग्यसम्पन्नो द्वारकायम् उपस्थितः भद्रसूर्यासुतानाथो लीलामनुषविग्रहः सहस्रषोडशश्रीषो भोगमोक्षैकृतायकः वेदान्तविद्यः संविद्यो वेद्यो ब्राह्मण्डनायकः गोवर्धनधरुनथः सर्वजीवदयापरः मूर्तिमान् सर्वभूतत्मा अर्थत्राणपरायणः सर्वज्ञ सर्वसुलभः सर्वशास्त्रविशारदः षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः महानुभवः कैवल्यदायको लोकनायकः आदिमध्यन्तराहितः शुद्ध्यसत्त्विकविग्रहः आस्मनाः समस्तत्मा शरणागतवत्सलः उत्पत्तिस्थितिसंहार कारणं सर्वकारणं गम्भीराः सर्वभावज्ञ सच्चिदानन्दविग्रहः विश्वसेनाः सत्यसन्धः सत्यवान् सत्यविक्रमः सत्यव्रतः सत्यसमग्नः सर्वधर्मपरायणः आपन्नर्तिप्रसमानो द्रौपदीमानरक्षकः कन्दर्पजनकः प्राज्ञो जगन्नाथकवैभवः भक्तिवश्यो गुणातीतः सर्वैश्वर्या प्रदायकः तमाकुशासुताप्यशी वनबाहु विखण्डनः विष्मभक्तिप्रदो दिव्यः कौरवान्वयानाशनः कौन्तिया प्रिया बन्धुश्च पार्थस्यान्दनासारथिः नरसिंह महावीरः स्तम्भजातो महाबलः प्रह्लादवरदः सत्यो देवापूज्यो भयङ्करः उपेन्द्र इन्द्रवरजो वामनो बलिवन्दनः गजेन्द्रवरदः स्वामी सर्वदेवा नमस्कृतः शेषपर्यङ्कशायनो वैनतया रथो जयी अव्यहता बलिश्वर्या सम्पन्नः पूर्णा मनसः योगेश्वरेश्वरः साक्षी शत्रुघ्नो जनदायकः योगीरित्पङ्कजवासो योगमायसमान्वितः नादबिन्दुकलातीतश् चतुर्वर्गफलाप्रदः सुषुम्नामार्गसञ्चारी देहशन्तारसंस्थितः देहेन्द्रियमनः प्राण साक्षिचेतः प्रदायकः सूक्ष्मः सर्वगतो देहि ज्ञानदर्पणगोचरः तत्त्वत्रयात्मा को व्यक्ता कुण्डली समुपाश्रितः ब्राह्मण्यः सर्वधर्मघ्नः शान्तो दान्तो गतक्लमः श्रीनिवसः सदानन्दो विश्वमूर्तिर्महाप्रभुः सहस्राशिष्यः पुरुषः सहस्रक्षाः सहस्रपात् समस्तभुवनाधरः समस्तप्राणरक्षकः समस्तसर्वभाव्यग्नो गोपिका प्राणवल्लभः नित्युत्साहो नित्यसौख्यो नित्यश्रीर्नित्यामङ्गलः व्यूहार्चितजगन्नाथः श्रीवैकुण्ठपुराधिपः पूर्णानन्दघनीभूत गोपावेशधरो हरिः करापाकुसुमाश्यामः कोमलः शान्ताविग्रहः गोपायगणवितुनान्तो वृन्दावनसमश्रयः वेणुवादरताश्रेष्ठो देवनम्भितकरकः बालक्रीडासमासक्तो नभनित्यस्य तस्करः गोपालकामिनीजर चौरजाराशिखामणिः परं ज्योतिः पराकशः परावासः परिष्फुटः अष्टादशक्षरो मन्त्रो व्यापको लोकपावनः सप्तकोटिमहामन्त्रा शेखरो देवशेखरः विघ्ननं ज्ञानसन्धानस्तेजोराशिर्जगत्पतिः भक्तलोकाप्रसन्नात्मा भक्तमन्दारविग्रहः भक्तदारिद्र्यदामनो भक्तनामो प्रीतिदायकः भक्तधीनामनः पूज्यो भक्तलोकाश्रीवङ्करः भक्तविष्टाप्रदः सर्व भक्तभोगानिकृन्तनः अपारकरुणासिन्धु भगवान् भक्ततत्परः श्रीगोपालसहस्रनामस्तोत्रं सम्पूर्णम्।